ஓம் சிவாய நம. டியர் லிசனர்ஸ் ஆஃப் சைவம் டாட் ஆர்க், தி நெக்ஸ்ட் ப்ரோக்ராம் இஸ் ஸ்பிரிச்சுவல் டிஸ்கோர்ஸ். இன் திஸ் யூ ஆர் அபவுட் டு லிசன் ஈஷா வாசியோபனிஷத், ப்ரெசன்டட் பை சுவாமி ஸ்ரீ திவ்யானந்தஜி மகாராஜ். தேங்க்யூ. ஓம் நம சிவாய.
ஆஜ கீதா ஜெயந்தி, இஸ்லே ஸ்ரீமத் பகவத் கீதா பாராயண கரெங்கே, சௌ போலேங்கே மில்கர் கே. ஏக் प्रारंभ में बताऊंगा, प्रारंभ में तो सो बोलेंगे, बाद में आधा इधर बोलेंगे आधा इधर बोलेंगे, मैं जैसे बताऊंगा मिल करके सबको बोलना है. पहले अथ श्रीमद भगवद गीता करण्यास ध्यानादि. ओम अस्य श्रीमद भगवद गीता माला मंत्रस्य भगवान वेदव्यास ऋषि अनुष्टुप छंदः श्रीकृष्णः परमात्मा देवता अशोच्यानन्न शोचस्त्वं प्रज्ञावादांश्च भाससे इति बीजं सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज इति शक्तिः अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच इति कीलकं नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक इत्यङ्गुष्ठाभ्यां नमः न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति तर्जनेभ्यां नमः. असद्यो यमदाह्यो यमक्लेद्यो शुच्य एव च इति मध्यमाभ्यां नमः. नित्यः सर्वगतः स्थानो रचलोऽयं सनातन इत्यनामिकाभ्यां नमः. पश्य मे पार्थरूपाणि शतशूथो सहस्रश इति कनिष्ठिकाभ्यां नमः. नानाविधानि दिव्यानि नानावर्णाकृतीनि च इति करतलकरपृष्ठाभ्यां नमः. इति करन्यासः. अथ हृदयादिन्यासः. नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक इति हृदयाय नमः. न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति शिरसे स्वाहा. असेद्यो यमदाह्यो यमक्लेद्यो शुष्य एव च इति शिखायै वसत. नित्यः सर्वगतः स्थानो रचलोऽयं सनातन इति कवचाय हुम्. पश्य मे पार्थरूपाणि शतशोतसहस्रश इति नेत्रत्रयाय बहुषट. नानाविधानि दिव्यानि नानावर्णाकृतीनि च इति अस्त्राय पट. श्रीकृष्ण प्रीत्यर्थे पाठे विनियोग. ओम पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराण मुनिना मध्ये महाभारतं अद्वैतामृतवर्षिणीं भगवती मत्सादशाध्यायिनी मम्बत्वामनुसन्दधामि भगवत् गीते भवद्वेषिणि. नमोऽस्तु ते व्यास विशालबुद्धे हुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्ण प्रज्वालितो ज्ञानमयः प्रदीप प्रपन्नपारिजाताय तुत्र वेत्रैकपाणये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः. वसुदेवसुतं देवं कंसचानुरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं. भीष्मद्रोणतटा जयद्रथजला गन्धारनीलोत्पला शल्यग्राहवती कृपेण वाणी कर्णेन वेलाकुला. अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी सोत्तीर्णा खलु पाण्डवैरननदी कैवर्तकः केशव. पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं नानाख्यानकेसरं अरिकता सम्बोधना बोधितम्. लोके सज्जन षट्पदैरारः पेपीयमानं मुदा भूयाद् भारत पङ्कजं कलिमल प्रध्वंसिनः श्रेयसे. मूकं करोति वाचालं पंगुं लंघयते गिरिं यत्कृपातमहं वंदे परमानंद माधवं। अथ श्री गीता महात्म्यं। गीता शास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् वैष्णोः पदमवाप्नोति भयशोकादिवर्जितः। गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ति पापानि पूर्वजन्मकृतानि च। मलनिर्मोचनं पुंसां जलस्नानं दिने दिने सकृद्गीताम्भसि स्नानं संसारमलनाशनम्। गीता सुगीता कर्तव्या किमन्हि शास्त्रविस्तरे या स्वयं पद्मनाभस्य मुखपद्माद्विनिश्चिता भारतामृत सर्वस्वं विष्णुर्वक्त्राद्विनिश्चितम्। गीता गंगोदकं पीत्वा पुनर्जन्म न विद्यते सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः पार्थो वत्स सुधीर्भोक्ता दुग्धं गीतामृतं महत्। एकं शास्त्रं देवकी पुत्र गीत मेको देवो देवकी पुत्र एव। एको मन्त्रस्तस्य नामानि यानि कर्माप्येकन्तस्य देवस्य सेवा। अथ ध्यानम्। शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गं लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथं। यं ब्रह्मा वरुणेन्द्ररुद्रमरुत सुन्वन्ति दिव्यैः स्तवैर्वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगा ध्यानावस्थित तद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुसुरासुरगणा देवाय तस्मै नमः। ॐ श्री परमात्मने नमः। अथ श्रीमद् भगवत गीता। ये इधर वाले प्रारंभ करेंगे, फिर बोलना आधा बोलने के बाद फिर मैं बताऊंगा। अथ प्रथमोध्याय। धृतराष्ट्र उवाच धर्म क्षेत्रे कुरुक्षेत्रे समवेतायुत्सव। संजय उवाच
మాధవ
పాండవ దివ్య శంకో
పాంచజన్యం ఋషికేశో దేవదత్తం ధనంజయ
పౌర్ణం దద్దో మహాశంకం భీమ కర్మా మృగోదర
అనంత విజయం రాజా కుంతిపుత్రో యుధిష్ఠిర
నకుల దేవస్య సుఘోష మణిపుష్పకౌ
కాశ్యశ్చ పరమేశ్వాస శిఖండీ చ మహారత
దృష్టదుమ్నో విరాటస్య సాత్యకిశ్చ పరాజిత
భూపదో ద్రౌపదేయాశ్చ సర్వశ పృథివీపతే
సౌభద్రశ్చ మహాబాహు శంఖదగ్నో పృథక్ పృథక్
సఘోషో ధాతరాష్ట్రాణాం హృదయాని వ్యదారయత్
నభశ్చ పృథివీం చైవ తుమలో వ్యనునాదయన్
అథ వ్యవస్థితాన్ దృష్ట్వా
ప్రవృత్తే శస్త్ర సంపాతే ధనుర్జమ్య పాండవ
ఋషికేశం తదా వాక్య వీరమాహమీపతే
అర్జున ఉవాచ శయనయోరుభయోర్మధ్యే రథం స్థాపయ మేచ్యుత
యావదేవతాన్నిరిక్షేహం
మస్మిన్ రణ సముద్యమే
యోచ్యమానాన వేక్షేహం యేత్ర సమాగత
భారతరాష్ట్రస్య దుర్బుద్ధే యుద్ధే ప్రియశవ
సంజయ ఉవాచ
ఏవముక్తో ఋషికేశో గుడాకేశేన భారత
శేనయోర్మధ్యే స్థాపయ భారతోత్తమం
విశ్వద్రోణమ్రమౌకథ
పశ్యేతాన్ సమవేతాన్ పురోనితి
తత్రాపశ్యస్థితాన్ పార్థ పితృన్నత పితామహాన్
ఆచార్యాన్ మాతులాన్
ధాత్రీన్ పుత్రాన్ పౌత్రాన్ సఖేతత
శ్వశురాన్ సోదరేశైవ సేనయోరుభయోరపి
సమీక్షసకం తేయః సర్వాన్ కృపయా పరయా విష్ణు విషేదం నిదమాబ్రవీ అర్జున ఉవాచ
కృష్ణ
సీదం సి మమ గాత్రాణి
ముఖం చ పరిశుష్యతి
వేపతుశ్చ శరీరే మే శక్నోమ్యవస్థాతుం
నిమిత్తాని చ పశ్యామి విపరీతాని కేశవ
న చ శ్రేయం పశ్యామి హత్వా స్వజనమావరి
తథాంకే విజయం కృష్ణ
రాజ్యం సుఖాని చ
కిం నో రాజేన గోవింద కిం భోగ జీవితేన
ఏషామర్తే కాంక్షితం నో రాజ్యం భోగా సుఖాని చ
స్థితా యుద్ధే ప్రాణాశ్చనాని చ
ఆచార్య పితర పౌత్ర తథైవ చ పితామహ
మాతులా శ్వశురా పౌత్రా శాలా సంబంధినస్తథా
ఏతాన్ హంతుమిచ్ఛామి నతోపి మధుసూదన
అమిగ్రహ్యోక్య రాజస్య హేతో కిం నో మయి కృతే
నిహత్య ధారతరాజాన్న ప్రీతిరాజనాథన
పాపమేవాశ్రయేదస్మాన్ అర్వేతానాథరాయిన
తస్మాన్నార్హా వయం హంతు ధారతరాష్ట్రాన్ స్వబంధవాన్
స్వర్ణం ఏకతం హత్వా శ్రీనాశామాధవ
యదప్రేతేన పశ్యంతి
లక్షయ కృతం దోషం నిమిత్రదోహే చ పాతకం
కథం నేయమస్మాభిః పాపాదస్మాన్ని వర్జితుం
కులక్షయం కృతం దోషం ప్రపశ్యతి జనార్దన
కులక్షయే ప్రణశ్యంతి కులధర్మాధనాదనాః
ధర్మే నష్టే కులం కృష్ణ మధర్మో విభవత్కృత
ధర్మా విభవత్ కృష్ణ
प्रदुषन्ति कुलस्त्रियः
श्रीशूदृशाश्वाश्रेय जायते वर्णशङ्कर
शङ्करो नरकार्यैव कुलग्नानां कुलस्य च
पतन्ते पितरौ येषां लुप्तपिण्डोदकक्रिया
दोषैरैलग्नानां वर्णशङ्करकारकैः
उत्सादन्ते जातिधर्मा कुलधर्माश्च शाश्वताः
उत्सन्नकुलधर्माणां मनुष्याणां च नाथन
नरके नियतं वासो भवति च
अहो वत्महत्पापं कर्तुं व्यवसिता वयम्
यद्राजसुलोभेन हन्तु स्वजनमुच्यता
यदि माम प्रतीकारमशस्त्रं शस्त्रपाणयः
भारतराष्ट्रारणे हन्यो सम्ये क्षेमतरं वरे
सञ्जय उवाच
विश्वजं सहस्रं चापं शोकसंज्ञमानस
ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः अथ द्वितीयोऽध्यायः सञ्जय उवाच तं तथा कृपयाविष्ट मश्रुपूर्णाकुलेक्षणम् श्रीभगवान् उवाच अनार्य जुष्टम स्वर्ग्य मकीर्ति करमर्जुन त्वय्युपपद्यते शुद्रं हृदय दौर्बल्यं अर्जुन उवाच
कथं भीष्ममहं संके द्रोणं च मधुसूदन
प्रतियोत्स्यामि पूजारावरिसूदन
गुरो न हत्वा हि महानुभावान् श्रेयो भोक्तुं वैक्षमपि अलोके हत्वार्थकामास्तु गुरुनेव भुञ्जीय भोगान् रुधिरप्रदिग्धान् चैतद्विद्म कतरन्नो करियो यद्वा याने वहत्वा न जिजीविषामस्तेव स्थिता प्रमुखे धार्तराष्ट्रा वहत स्वभाव यच्छेयस्यान्निश्चितं ब्रूहि तन्मे शिष्यस्येऽंशात् नहि प्रपश्यामि ममापनुद्यात् यच्छोकमुच्छोषणमिन्द्रियाणाम् अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि
चाधिपत्यम्
सञ्जय उवाच न योत्स इति गोविन्द मुक्त्वा तूष्णीं बभूव
समुवाच ऋषिकेशीव भारत
सेनयोर्मध्ये विशिलदन्तमिदं वच
श्रीभगवानुवाच
अशोच्यानन्न शोचस्त्वम् न गता संश्च
नानुशोचन्ति पण्डिताः
लभिष्यामः
सर्वे वयमतः परम्
कौमारम् यौवनम् जरा
तथा देहान्तर प्राप्तिर् धीर तत्र आगमा पायिनो नित्यांश सांस्थिति चत्व भारत
पुरुषं पुरुषर्षभ
समदुःख सुखं धीरं सोमृतत्वाय कल्पते
नाशको विद्यते बाहो नाभावो विद्यते सतः
उभयोरपि दृष्ट्वन्तः त्वनयोस्तत्त्वदर्शिनि
अविनाशी तद्विद्धि येन सर्वमिदं कथम्
विनाशमपि यस्यास्य अंतवंत
देहा शरीर
येन
मन्यते हतम्
जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूय अजो नित्यशाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे वेदा विनाशिनं नित्यं मजमव्ययं कथं
सत् कम घातयति हन्तिकम्
वासान्ति जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देहि नैनं छिन्दन्ति
शस्त्राणि नैनं दहति पावक
नैनं क्लेदयन्त्यापो अच्छेद्योयमदाह्यो य मक्लेद्यो शुष एव च नित्य सर्वगत स्थानु रचलोऽयं सनातन यमचिन्त्यो य मविकार्यो यमुच्यते
तस्मादेवं विदित्वैनं
मृत्यु ध्रुवं जन्म मृतश्च
तस्मात्परिहार्यर्थे
भूतानि व्यक्तमद्यानि भारत
अव्यक्तं लिखनान्येव तत्र का
परिदेवनाश्चर्यवत्पश्यति कश्चिदेन आश्चर्यवद्वदमितदेव
आश्चर्यवच्चैन मन्या शृणोति श्रुत्वापेनं वेदन चैव कश्चित्
ये क्रमवद्योऽयं ते सर्वस्य भारत
तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि
स्वधर्ममपि चावेक्षम् नाशितं भवितुमर्हसि
गच्छेयोऽन्यत् क्षत्रियस्य
यदृशाचोपपन्नम् स्वर्गद्वारमावृतम्
सुखिनः क्षत्रिय पार्थ
लभन्ते युद्धमीदृशम्
अथ चेत् त्वमिमम् धर्म्यम् सङ्ग्रामम् न करिष्यसि
ततः स्वधर्मम् कीर्तिम् च हित्वा पापम् वाप्स्यसि
अकीर्ति चापि भूतानि कथयिष्यन्ति
सम्भावितस्य
कीर्तिर् मरणादपिरिच्यते
भयादृणातु परतम्
मन्ष्यन्ते त्वाम् महारथा
येषाम् च त्वम् बहुमतो
भूत्वा यास्यसि लाघवम् वाचवादांश्च बहून् वदिष्यन्ति तवाहिता
निन्दन्तम् तव सामर्थ्यम् ततो दुःखतरम् नु किम्
अतो वा प्राप्स्यसि स्वर्गम् हित्वा वा भोक्ष्यसे महीम्
तस्मादुद्दिष्टकम् देय युद्धाय कृतनिश्चय
सुखदुःखे समे कृत्वा लाभालाभो जयाजयो
ततो युद्धाय युज्यस्व नैवम् पापम् वाप्स्यसि
एषा देवीता साङ्ख्ये बुद्धिर्लोके त्वाम् शृणु
बुद्ध्यायुक्तो यया पार्थ कर्मबन्धम् प्रहास्यसि
नेहाविभ्रमनाशोऽस्ति प्रत्यवायो न विद्यते
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्
व्यवसायात्मिका बुद्धि देकेह कुरुनन्दन
बहुशा कार्यनन्दाश्च बुद्धयो व्यवसायिनाम्
यामिमाम् पुष्पिताम् वाच प्रवद्यन्त विपश्चितः
वेदवादरता पार्थ नान्यदसीतिवादिनः
कामात्मानः स्वर्गपरा कर्म कर्म फलप्रदाम्
क्रियाविशेष बहुला भोगैश्वर्यत किम् प्रति
भोगैश्वर्यसक्ताम् तया परितचेतसाम्
व्यवसायात्मिका बुद्धि समाधौ न विधीयते
त्रैगुण्यविषया वेदा निःश्रेयपुण्यो भवार्जुन
निर्बन्धो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्
यावानर्थ उदपाने सर्वदा संवृतो भवे
तावान् सर्वेषु वेदेषु ब्राह्मणस्य ज्ञानतः
कर्मण्येवाधिकारस्ते मामयेषु वदराजन
मा कर्म
फलहेतुर्भुर् मा ते सङ्गोष्ठ कर्मणि
योगस्तागुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय
सिद्ध्य सिद्ध्यो समो भूत्वा
समत्वम् योग उच्यते
दुरेण केवलम् कर्म बुद्धियोगा धनञ्जय
बुद्धौ शरणमन्विच्य गृहणा फलहेतवः
बुद्धियुक्तो जानीय उभेषु कृतदुष्कृते
तस्मात् योगायुज्यस्व योग कर्मसु कौशलम्
कर्मजम् बुद्धियुक्तायि फलम् त्यक्त्वा मनीषिणः
जन्म गन्धमि निर्भुक्ता पदम् गच्छन्त्य नामयम्
यदा ते मोहकलिलम् बुद्धिर्व्यतीकरिष्यति
तदा गन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च
श्रुतिर्प्रतिपन्नाते यदा तस्यसि निश्चला
बुद्धिः तदा योगम् अर्जुन उवाच
यत्प्रज्ञस्य का भाषा समाधिस्तस्य केशव
किम् प्रभाषेत किमासीत गजेत किम्
श्रीभगवान् उवाच प्रजानाति यदा कामान् सर्वान् पार्थ मनोगतान्
आत्मन्येवात्मना तुष्ट स्थितप्रज्ञः सदोच्यते
दुःखेषु विद्मना सुखेषु विगतस्त्र
वीतरागभयक्रोध स्थितनिरुच्यते
यः सर्वात्रान्नदीनेह प्राप्य शुभाशुभम्
नाभिनन्दति न वेष्टि तस्य प्रज्ञा प्रतिष्ठिता
यदा समर्थे चायम् कुर्मः
इन्द्रियाणि तस्य
प्रज्ञा प्रतिष्ठिता
विषया विनिवर्तन्ते निराशलीन
रसवरजम् रसोऽप्यस्य परम् दृष्ट्वा निवर्तते
यततोऽपि कौन्तेय पुरुषस्य विपश्चिता
इन्द्रियाणि क्रमातीनि हरन्ति प्रसभम् मनः
तानि सर्वाणि संयम्य युक्तासीत मत्परः
वशेयीयशेन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता
ध्यायतो विषयान् पुंसः सङ्गते सम्प्रजायते
सङ्गात् सञ्जायते काम कामात् क्रोधो विजायते
क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः
स्मृतिनंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति
रागद्वेषो युक्तेषु विषयान्
आत्मवशेन्विधेयात्मा प्रसादमधिगच्छति
प्रसादे सर्वदुःखानाम् हानिरशोपजायते
प्रसन्नचेतसो याशु बुद्धिः पर्यवतिष्यते
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना
न चाभावयतः शान्ति शान्तस्य कुतः सुखम्
इन्द्रियाणाम् इतरताम् यन्मनो नो विधीयते
तदस्य प्रज्ञाम् वायुर्नावमिमहमसि
तस्माद्दस्य महाबाहो निगृहीतानि सर्वशः
इन्द्रियाणीन्द्रियार्थेभ्य
तस्य प्रज्ञा प्रतिष्ठिता
यानि सा सर्वभूतानाम् तस्या जागृति संयमे
यस्याम् जागृतिभूतानि
सा पश्यतोमुनिपूयमानमचलप्रतिष्ठम् समुद्रमाप प्रविशन्ति यद्वत् तद्वत् कामायम् प्रविशन्ति सर्वे